एस रेडियो नेपालः सम्प्रति समाचारः श्रुवन्ताम् प्रवाचक उपेन्द्र दाहालः। नेकपा एमाले दलस्य एकादशम् राष्ट्रिय महाधिवेशनम् अद्यतः प्रारभते। अद्य भक्तपुर जनपदस्य सल्लाघार स्थाने नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली महाधिवेशनस्य समुद्घाटनम् करिष्यति। महाधिवेशनस्य कृते सर्वाण्यपि पूर्व कार्याणि प्रपूरितानि सन्तीति महाधिवेशन आयोजक समित्या ज्ञापितं वर्तते। अद्य समुद्घाटन समारोहं समाप्य स्वप्रवृत्ति काष्ठमण्डपस्य भ्रिकुटी मण्डपस्थाने आन्तर सत्रं संचालयिष्यते इति दलेन ज्ञापितमस्ति। एमाले दलस्य महाधिवेशने देशस्य विभिन्नेभ्य क्षेत्रेभ्य सार्ध सहस्र अधिकाः प्रतिनिधयः सहभागिनः वर्तन्ते। अनेन महाधिवेशनेन एमाले दलस्य नूतन केन्द्रीय कार्यसमितिः चेष्यते। महाधिवेशनम् परश्व सोमवासरे समाप्स्यति। नेकपा एमाले दलस्य सचिवालयोपवेशेन एकादशतमे राष्ट्रिय महाधिवेशने गत भाद्रमासे सम्पन्नात् विधानमहाधिवेशनात् पारितस्य विधानस्य आधारेण एव नवीनस्य नेतृत्वस्य चयनाय निर्णीतमस्ति। ह्या उपविष्टेन सचिवालयोपवेशेन द्वितीय विधान महाधिवेशनस्य सर्वोच्चतां स्वीकृत्य एकादशतमे महाधिवेशने पञ्चदश सदस्यानां पदाधिकारिणां एकपञ्चाशदुत्तर शतद्वय सदस्यात्मक केन्द्रीय समितेश्च चयनाय निर्णीतमस्तीति दलस्य उपमहासचिव प्रदीप गेमाली असूचयत्। नवनियुक्तैः चतुर्भिः मन्त्रिभिः यः पदगोपनीयतयोः शपथः गृहीतोऽस्ति। शीतल निवासवर्तिनी राष्ट्रपति भवने ह्यः आयोजिते कार्यक्रमे राष्ट्रपतिः पौडेलः भूमिव्यवस्था सहकारी विपन्नता निवारण मन्त्री पदे कुमारसिंह इङनाम इत्यमुम् समवृत्ति सामाजिक सुरक्षा मन्त्री पदे राजेन्द्र सिंह भण्डारी इत्यमुम् वन वातावरण मन्त्री पदे माधव चौलागाई इत्यमुम् महिला बाल बालिका ज्येष्ठ नागरिक मन्त्री पदे श्रद्धा श्रेष्ठम् च पदगोपनीयतयो शपथम् अग्राहयत्। प्रधानमन्त्रिणः सुशीला कार्किणः परामर्शेन राष्ट्रपतिना रामचन्द्र पौडेलेन एते जना ह्य एव मन्त्रीपदे नियुक्ता आसन्। गत भाद्रमासस्य सप्तविंशे दिवसे संघटिताया मन्त्रिपरिषद सदस्य संख्या एतेन विस्तारेण सहैव चतुर्दश प्राप्तास्ति। शपथग्रहण समारोहे उपराष्ट्रपतिः रामसाहेब प्रसाद यादवः प्रधानमन्त्री सुशीला कार्की प्रधान न्यायाधीशः प्रकाशमान सिंह राउत प्रतिनिधिसभायाः सभामुख देवराज घिमिरे राष्ट्रियसभायाः अध्यक्ष नारायण प्रसाद दाहाल मन्त्रिणः सांविधानिक निकायानां प्रमुखाः पदाधिकारिणश्च उपस्थिताः आसन्। शपथग्रहणानन्तरं पूर्वेद्यो एव नवनियुक्तैः मन्त्रिभिः स्वीय पदभारः गृहीतोऽस्ति। यः सिंहप्रसादवर्तिनी मन्त्रालये पदभारं निर्वहन् नवनियुक्तो भूमिव्यवस्था सहकारी विपन्नता निवारण मन्त्री प्राध्यापकः डाक्टर कुमारसिंह इङनाम संचारकर्मिभिः सह संक्षेपेण भाषमाणः कृषिहीन भूमेः अधिकतमं प्रयोगं कृत्वा तत्कृषिकर्मणः कृते जनेभ्यः प्रेरणा प्रदीयते इति प्रतिबद्धतां व्यक्तवान्। नवनियुक्त महिला बाल बालिका ज्येष्ठ नागरिक मन्त्री श्रद्धा श्रेष्ठ ह्यः पदभारं निर्वहन्ति। एतद् विक्रमवर्षीयस्य राष्ट्रिय लैंगिक परीक्षण कार्यविधेः परिमार्जितं प्रारूपं स्वीकृतवती। तथैव च नवनियुक्त श्रमवृत्ति सामाजिक सुरक्षा मन्त्री राजेन्द्र सिंह भण्डारी स्वस्य योग्यतायाः दक्षतायाश्चानुसारेण देशे श्रेष्ठस्य द्वन्द्वस्य व्यवस्थापनाय सक्रियता भविष्यतीति प्रतिबद्धतां व्यक्तवान्। एनपीएल इति नाम्न्याः नेपाल प्रीमियर लीग इति क्रिकेट क्रीडा प्रतियोगितायाः द्वितीय संस्करणस्य उपाधि प्राप्त्यर्थम् अन्तिम क्रीडा अद्य जायमानास्ति। अद्य अपराह्नस्य चतुर्वादनतः कीर्तिपुरवर्तिन्यां त्रिभुवन विश्वविद्यालय क्रिकेट क्रीडा रंगशालायां सम्पत्स्यमानायाम् अन्तिम क्रीडायाम् उपाधि प्राप्त्यर्थं सुदूर पश्चिम रोयल लुम्बिनी लायन्स चेति द्वौ समूहौ प्रतिस्पर्धेते। समूहचरणस्य क्रीडासु सुदूरपश्चिम समूह प्रथमस्थाने अस्ति, लुम्बिनी लायन्स समूह द्वितीयस्थाने च वर्तते। अस्याम श्रृंखलायाम सुदूर पश्चिम समूह सर्वापेक्षया शक्तिशाली दृष्ट अस्ति तथैव लुम्बिनी लायन समूहेन च अन्तिमासु पञ्चसु क्रीडासु नैरन्तर्येण विजय प्राप्त अस्ति इत्यतः अन्तिम क्रीडा ततोपि प्रतिस्पर्धायुता भविष्यति इति विश्वास कृतोऽस्ति। नेपाल क्रिकेट संघेन नेपाले गतवर्षात् प्रारब्धायाः अस्याः नेपाल प्रीमियर लीग इति नामिकायाः प्रतियोगितायाः अस्यां द्वितीय श्रृंखलायाम् अष्टौ समूहाः सहभागिनः आसन्। अस्यैव मार्गशीर्ष मासस्य प्रथम दिवसात् प्रारब्धायाम् अस्यां प्रतियोगितायां विजेत्रा समूहेन दशलक्षाधिकैक कोटिः रूप्यकाणि पारितोषिक रूपेण प्राप्यन्ते चेत् उपविजेत्रा समूहेन एकपञ्चाशद लक्षाणि रूप्यकाणि प्राप्स्यन्ते इति नेपाल क्रिकेट संघेन ज्ञापितम् वर्तते। तथैव प्रतियोगिताया सर्वोत्कृष्टेन नैपाल क्रीडकेन एकं कारयानं च विशेष पारितोषिक रूपेण प्राप्यते इति च संघेन ज्ञापितमस्ति। पाल्पा जनपदस्य निस्दी ग्रामपालिकाया चतुर्थवडा क्षेत्रवर्तिनी मित्याल ज्यूरेवास स्थाने जीपयानस्य दुर्घटनायां त्रयो जना मृता वर्तन्ते। मृतकेषु पाल्पा जनपदस्य निस्ती ग्रामपालिकाया सप्तमवडा क्षेत्रस्य 37 वर्षीया हेमकुमारी सारो 45 वर्षीया ओम कुमारी खाप्चा च वर्तेते। एकस्य जनस्य सम्प्रति सत्यापनं सम्भूतं नास्तीति प्रहरिणा ज्ञापितमस्ति। दुर्घटनायां अष्टौ जना आता वर्तन्ते तेषाम् उपचार जायमानोऽस्तीति पाल्पा जनपद प्रहरी कार्यालयस्य सूचनाधिकारी होम प्रकाश चौधरी अज्ञापयत्। विभिन्नेषु देशेषु आकर्षक वृत्त्युपार्जनाय प्रेषयिष्यते इति उक्त्वा 38 युवयुवतीभ्यः कोटिचतुष्टयम् 41 लक्षाणि च रूप्यकाणि वञ्चितवान् इत्यारोपे काष्ठमण्डप महानगरपालिकायाः 27 वडा क्षेत्रस्य 51 वर्षीय मनोज कुमार सिंह इति उपनामा अनुज कुमार सिंह पूर्वेद्युप्रेरणा निगृहीतो वर्तते।